ओम नमो भगवते वासुदेवाय। अथ पञ्चषष्टितमोऽध्यायः। श्रीशुक उवाच। बलभद्रः कुरुश्रेष्ठ भगवान् रथमास्थितः, सुहृद्दिदृक्षुरुत्कण्ठः प्रययौनन्दगोकुलम्। परिष्वक्तश्चिरोत्कण्ठैर्गोपैर्गोपीभिरेव च रामोऽभिवाद्य पितरावाशीर्भिरभिनन्दितः। चिरम् नः पाहि दाशार्ह सानुजो जगदीश्वरः। इत्यारोप्याङ्कमालिङ्ग्य नेत्रैः शिशुचतुर्जलैः गोपवृद्धांश्च विधिवत्यविष्टैरभिवन्दितः। यथा वयो यथा सख्यम् यथा सम्बन्धमात्मनः। समुपेत्याथ गोपालान् हास्यहस्तग्रहादिभिः। विश्रान्तम् सुखमासीनम् पप्रच्छुः पर्युपागताः। पृष्टाश्चानामयम् स्वेषु प्रेमगद्गदया गिरा। कृष्णे कमलपत्राक्षे सन्न्यस्ताखिलराधसः। कच्चिन्नो बान्धवा राम सर्वे कुशलमासते। कच्चित् स्मरथ नो राम यूयम् दारसुतान्विताः। दिष्ट्या कंसो हतः पापो दिष्ट्या मुक्ताः सुहृज्जनाः। निहत्य निर्जित्य रिपून् दिष्ट्या दुर्गम् समाश्रिताः। गोप्यो हसन्त्यः पप्रच्छु रामसन्दर्शनादृताः। कच्चिदास्ते सुखम् कृष्णः पुरस्त्रीजनवल्लभः। कच्चित् स्मरति वा बन्धून् पितरम् मातरम् च सः। अप्यसौ मातरम् द्रष्टुम् सकृदप्यागमिष्यति। अपि वा स्मरते स्माकमनुसेवाम् महाभुजः। मातरम् पितरम् भ्रातॄन् पतीन् पुत्रान् स्वश्रीरपि। यदर्थे जहि मदाशार्ह दुस्त्यजान् स्वजनान् प्रभो। तानः सद्यः परित्यज्य गत सञ्छिन्न सौहृदः। कथम् नु तादृशम् स्त्रीभिर्न श्रद्धीयेत भाषितम्। कथम् नु गृह्णन्त्यनवस्थितात्मनो वचः कृतघ्नस्य बुधा पुरस्त्रियः। गृह्णन्ति वैचित्रकथस्य सुन्दरस्मितावलोकोच्छ्वसितस्मरातुराः। किम् नस्तत्कथया गोप्यः कथा कथयता पराः। यात्यस्माभिर्विना कालो यदि तस्य तथैव नः। इति प्रहसितम् शौरेर्जल्पितम् चारुवीक्षितम्। गतिम् प्रेम परिष्वङ्गम् स्मरन्त्योरुरुदुः स्त्रियः। सङ्कर्षणस्ता कृष्णस्य सन्देशैर्हृदयङ्गमैः। सान्त्वयामास भगवान् नानानुनयकोविदः। द्वौ मासौ तत्र च वात्सीन् मधुम् माधवमेव च। रामक्षपासु भगवान् गोपीनाम् रतिमावहन्। पूर्णचन्द्रकलामृष्टे कौमुदी गन्धवायुना। यमुनोपवने रेमे सेविते स्त्रीगणैर्वृतः। वरुणप्रेषिता देवी वारुणी वृक्षकोटरात्। पतन्ती तद्वनम् सर्वम् स्वगन्धेनाध्यवासयत्। तम् गन्धम् मधुधाराया वायुनोपहृतम् बलः। आघ्रायोपगतस्तत्र ललनाभिः समम् पपौ। उपगीयमानचरितो वनिताभिर्हलायुधः। वनेषु व्यचरत्क्षीभो मदविह्वलोचनः। स्रग्वेककुण्डलो मत्तो वैजयन्त्या च मालया। बिभ्रत्स्मितमुखाम् भोजम् स्वेदप्रालेयभूषितम्। स आजुहाव यमुनाम् जलक्रीडार्थमीश्वरः। निजम् वाक्यमनादृत्य मत्त इत्यापगाम् बलः। अनागताम् हलाग्रेण कुपितो विचकर्षः। पापे त्वम् मामवज्ञाय यन्नायासि मया हुता। नेष्ये त्वाम् लाङ्गलाघ्रेण शतधा कामचारिणीम्। एवम् निर्भर्त्सिता भीता यमुना यदुनन्दनम्। उवाच चकिता वाचम् पतिता पादयोर्नृप। राम राम महाबाहो न जाने तव विक्रमम्। यस्यैकांशेन विधृता जगति जगतः पते। परम् भावम् भगवतो भगवन् माम जानतीम्। मोक्तुमर्हसि विश्वात्मन् प्रपन्नाम् भक्तवत्सल। ततो व्यमुञ्चत् यमुनाम् याचितो भगवान् बलः। विजगाह जलम् स्त्रीभिः करेणुभिरिवेभराट्। कामम् विहृत्य सलिला दुत्तीर्णायासिताम्बरे। भूषणानि महार्हाणि ततौ कान्तिः शुभाम् स्रजम्। वसित्वा वाससि नीले माला मामुच्य काञ्चनी। रेजे स्वलङ्कृतो लिप्तो माहेन्द्र इव वारणः। अद्यापि दृश्यते राजन् यमुना कृष्टवर्त्मना। बलस्यानन्तवीर्यस्य वीर्यम् सूचयति वहि। एवम् सर्वा निशा याता एकेव रमतो व्रजे। रामस्याक्षिप्तचित्तस्य माधुर्यैर्व्रजयोषिताम्। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे उत्तरार्धे बलदेव विजये यमुनाकर्षणम् नाम पञ्चषष्टितमोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।